इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचको निक्षितः शास्त्री। विदेश सचिवः श्रीविक्रम मिस्त्री अवोचत् यत् पाकिस्तानेन गतापराह्णे जातायाः संघर्ष विरामस्य परस्पर सहमतेः वारंवारं उल्लंघनं क्रियते। वार्ताहरान् सम्बोधयन् श्रीमिस्त्रिः अवदत् यत् सशस्त्र सेनाः एतेषाम् उल्लंघनानाम् उपयुक्तम् उचितं च प्रत्युत्तरं ददति। सममेव नवदिल्ली अपि स्थितिं गभीरदृष्ट्या अवलोकयति। भारतं पाकिस्तानं एतानि उल्लंघनानि प्रति उपयुक्तान् उत्तरदायित्वपूर्णान् च पदक्रमान् उत्थापयितुम् आह्वयति। श्रीमिस्त्री एतदपि अवोचत् यत् सशस्त्रसेनाः स्थितिं सुदृढदृष्ट्या निरीक्षयन्ति। ताभ्यः निर्देशाः प्रदत्ताः सन्ति यत् ताः वारं वारं समुत्पन्नोल्लंघनानां सशक्ति प्रत्युत्तरं यच्छेयुः। केन्द्रीय गृह सचिवः श्रीगोविन्द मोहनः ह्यः पाकिस्तान निकट सीमावर्ति प्रदेशानां मुख्य सचिवैः सह दृश्य श्रव्य प्रणाल्या सम्मेलनं व्यदधात्। स्रोतसामनुसारं ते नागरिक प्रतिरक्षा प्रणालिं सर्वथा सिद्धावस्थायां स्थापयितुं निर्दिष्टाः यदि पारे सिम्नि पुनः संघर्षः भवेदिति। इमे निर्देशाः संघर्ष विरामानन्तरं आगताः। पाकिस्तानेन कृत उत्तेजक कार्याचरणानां कारणेन महती हानिः सोढा अस्ति। भारतेन प्रत्युत्तरे सिन्दूर अभियानान्तर्गतं पाकिस्तानस्य रक्षाक्रमणयोः प्रणाल्यः ध्वस्तीकृताः सन्ति। वार्ताहरान् सम्बोधयति भारतीय सेनायाः कर्नल सोफिया कुरेशी अवदत् यत् भारतीय सशस्त्र सेनया केवलं चिह्नितेषु आतंकवादिस्थानेषु तथा च भारतं विरुध्य उपयुज्यमान स्थानेषु एव सटीक प्रहारः कृतः। कर्नल कुरेशी पाकिस्तानस्य दुर्भावनापूर्ण मिथ्यासूचना प्रसारणाभियानस्य विषयेऽपि सूचितवती यत् पाकिस्तानं मिथ्याप्रचारं कुर्वदस्ति यत्तेन भारतीय S-400 प्रणाली नष्टीकृता, सूरत गढ़ सिरसा नगरयोः विमानक्षेत्रे चापि नष्टीकृते। पाकिस्तानेन प्रसारितानि एतानि मिथ्याभ्रामक साक्ष्याणि सा निर्विवादरूपेण अस्वीकृतवती। गतापराह्णे भारत पाकिस्तान देशौ युद्धविरामे साहमत्यं प्रकटितवन्तौ। विदेश सचिवः विक्रम मिस्त्री अवोजत् यत् देशद्वयेन सैन्याभियानस्य स्थगने सहमति प्रकटिता। अमुना उक्तं यत् पाकिस्तानस्य सैन्याभियानस्य महानिदेशकः गत अपराह्णे विषयेऽस्मिन् सहमतिं प्रकटितवान्। विदेशमन्त्रालयस्य स्रोतोभिः सूचितं यत् देशद्वये संवादस्य अन्यः विषयस्य चापि का सूचना नास्ति। प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्रिणा विदेशमन्त्रिणा रक्षाप्रमुखेण अथ च सैन्यत्रयस्य प्रमुखैः सह उपवेशनम् अकरोत्। इदम् उपवेशनं संघर्षविरामानन्तरं नवदिल्ल्यां प्रधानमन्त्रिणः आवासे अभवत्। राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभालः अपि उपवेशने उपस्थितः आसीत्। भारतीय क्रिकेट कंट्रोल बोर्ड BCCI इत्यस्य उपाध्यक्षः श्री राजीव शुक्लः अवोचत् यत् BCCI कार्यसमितेः जनाः अद्यतन सम्मेलने IPL विषये निर्णयं स्वीकरिष्यन्ति। अयं निर्णयः भारत पाकिस्तानयोर्मध्ये संघर्ष विरामानन्तरं आगतम्। गतरात्रौ पाकिस्तानेन पुनः भारतीय सीमायां संघर्ष विरामस्य उल्लंघनं कृतम्। एतस्य विषये भारतीय विदेश सचिवः विक्रम मिस्त्री रात्रौ जातस्य संघर्ष विरामस्य परस्पर सहमतेः वारं वारं उल्लंघनस्य विषये वार्ताहरान् सम्बोधयत्। तेन उक्तं यत् पाकिस्तानं वारं वारं संघर्ष विरामस्य उल्लंघनं करोति। एतस्य भारतं भारतीय सेनाश्च पुनः प्रत्युत्तरं यच्छन्ति। एतेन समयं वार्ताः समाप्यन्ते इति वार्ताः।